अथ नारायण अथर्वशीर्षम् अथ ध्यानम् बर्हापीडम् नटवरवपुः कर्णयोः कर्णिकारम् बिभ्रद्वासः कनककपिशम् वैजयन्तीं च मालाम् रन्ध्रान् वेणोः अधरसुधया पूरय गोपवृन्दये वृन्दारण्यम् स्वपदरमणम् प्राविशद्गीतकीर्तिः सशङ्खचक्रम् सकिरीटिकुण्डलम् सपीतवस्त्रम् सरसिरुहे क्षणम् सहारवक्षः स्थलकौस्तुभश्रियम् नमामि विष्णुं शिरसा चतुर्भुजम् नमामि विष्णुं शिरसा चतुर्भुजम् अथ पुरुषो ह वै नारायणो कामयतप्रजाः सृजेयेति नारायणात् प्राणो जायते मनः सर्वेन्द्रियाणि च खं वायुर्ज्योतिरापः पृथिवी विश्वस्य धारिणी नारायणात् ब्रह्मा जायते नारायणात् विष्णुर्जायते नारायणात् रुद्रो जायते नारायणात् इन्द्रो जायते नारायणात् प्रजापतिः प्रजायते नारायणात् द्वादशादित्या रुद्रावसवः सर्वाणि छन्दांसि नारायणात् देवः समुत्पद्यन्ते नारायणात् प्रवर्तन्ते नारायणे प्रलीयन्ते अथादित्यो नारायणः ब्रह्मा नारायणः शिवश्च नारायणः शक्रश्च नारायणः कालश्च नारायणः दिशश्च नारायणः ऊर्ध्वञ्च नारायणः अधश्च नारायणः अन्तर्बहिश्च नारायणः नारायण एवेदग्नु सर्वं यद्भूतं यच्च भाव्यम् निष्कलो निरञ्जनो निर्विकल्पो निराख्यातः शुद्धो देव एको नारायणो न द्वितीयोऽस्ति कश्चित् य एवं वेद सविष्णुरेव भवति सविष्णुरेव भवति ॐ इत्यग्रे व्याहरेत् नम इति पश्चात् नारायणायेत्युपरिष्टात् ॐ इत्येकाक्षरम् नम इति द्वे अक्षरे नारायणायेति पञ्चाक्षराणि एतद्वै नारायणस्याष्टाक्षरं पदम् यो ह वै नारायणस्याष्टाक्षरं पदमध्येति अनुपव्रतः सर्वमायुरेति विन्दते प्रजां रायस्पोषं गोपत्यम् ततोऽमृतत्वमश्नुते इति प्रत्यगानन्दं ब्रह्मपुरुषं प्रणवस्वरूपम् अकार उकारो मकार इति तानेकधा संयोज्य तदेव तदोम् इति यमुक्त्वा मुच्यते योगी जन्म संसार बंधनात्। ओम नमो नारायणायेति मंत्रोपासकः वैकुंठ भुवनं गच्छति तदिदं परमं पुंडरीकं विज्ञानघनं तस्मात् तडिदाभमात्रं ब्रह्मण्यो देवकी पुत्रो ब्रह्मण्यो मधुसूदनः सर्वभूतस्थमेकं वै नारायणं कारणरूपं परमब्रह्मकम् एतत् अथर्वशीर्षं योधीते सायमधीयानो दिवसकृतं पापं नाशयति प्रातरधीयानो रात्रिकृतं पापं नाशयति सायं प्रातः प्रयुञ्जानो अपापो भवति मध्यन्दिनमादित्याभिमुखो धीयानः सद्यः पञ्चमहापातकोपपातकेभ्यो मुच्यते सर्वं वेदपारायण पुण्यं लभते श्रीनारायण सायुज्यमवाप्नोति य एवं वेद इत्युपनिषत् इति नारायणाथर्वशीर्षम्। नमोऽस्त्वनन्ताय सहस्रमूर्तये सहस्रपादाक्षिशिरोरुबाहवे सहस्रनाम्ने पुरुषाय शाश्वते सहस्रकोटियुगधारिणे नमः सहस्रकोटियुगधारिणे नमः। ॐ नमो नारायणाय। ॐ नमो नारायणाय। ॐ नमो नारायणाय। ॐ नमो नारायणाय। ॐ